सहस्रकान्तिमरुणछूमं शिरोमालिकां रक्तालिप्तपयोधरं जपवटिं विद्यामभीतिं वरं हस्ताब्जर्दधतिं त्रिनेत्रविलसद्वक्तारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्देरविन्दस्थिताम् ॐ ऋषिरुवाच न्यन्यमानं तत्सन्यम् अवलोक्य महासुरः सेनानिश्चिच्छुरः कोपा द्ययो यो दधुमथाम्बिकां स्वदेवीं सर्वर्क्षेण ववर्ख समुदेशुरः यथा मेरुगिरःसिंहं तोयवर्षेण तोयदः तस्य छित्त्वा ततो देवी लील्येव सरोत्करान् जघान तुरगान् बाणैर्यन्तारं चैव वाजिनां चिच्छेद च धनुषद्यो ध्वजं चातिश्रमुक्षितं विव्याध चैव गात्रेषु छिन्नधन्वानमाशु गहे स्वच्छिन्नधन्वावृथो हतासो हतसारथिः अभ्यधावत्तं देवीं खड्गचर्मधरोऽसुरः सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धने आजघान भुजे सव्ये देवीमप्यति वेगवान् तस्या खड्गो भुजं प्राप्य पफाल नृपनन्दन ततो जग्राहशूलं स कोपादारुणलोचनः चिच्छेप च ततस्तु भद्रकाल्यां महासुरः जाज्वल्यमानं तेजोभिः रविबिम्बमिवाम्बरात् दृष्ट्वा तदाव तच्छूलं देवी शूलममुञ्चतः तच्छूलं सतधातेन नीतं स च महासुरः हति तस्मिन् महावीर्ये महिखस्य चमुपतौ आजगं गजारूढश्चामरस्त्रिदशार्दनः सोऽपि शक्तिं मोचाथ देव्यास्तामम्बिकाद्रुतं हुङ्काराभीतां भूमौ पातयामास निष्प्रभाम् भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः बाहुयुद्धे नियुधे तेनोच्चैस्त्रिदशारिणा युध्यमानो ततस्तौ तु तस्मान्नागान्महिङ्गतौ युयोधादिति संरब्धौ प्रहाररतिदारुणैः ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा करप्रहारेण शिरश्चामरस्य पृथक् कृतम् उदग्रश्चरणे देव्या शीला वृक्षाधिविरहतः दन्तमुष्टिस्थलैश्चैव करालश्च निपातितः देवी क्रुद्धा गदापातैश्चूर्णयामास्य चोद्धतम् वास्कलं भिन्दिपालेण बाणैस्ताम्रं तथान्धकम् उग्रासमुग्रवीर्यं च तथैव च महाहनुम् त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी बिडालस्यासिनाकायात् पातयामास वैशिरः दुर्धरं दुर्मुखं चोभौ शरैर्निन्ययमक्षयम् एवं संक्षीयमाणे तु स्वसैन्ये महिखासुरः माहिक्षण स्वरूपेण त्रासयामास तान् गणान् काञ्चीतुण्डप्रहारेण कुरुक्षेपैस्तथा परान् लाङ्गूलताडितानश्चान्यान् सिंहाभ्यां च विदाडितान् वेगेन काञ्चिदपरान्नादेन भ्रमणेन च निःश्वासपवनेनान्यान् पातयामास भूतले निपात्य प्रमथान्निकमभ्यधावत् सोऽसुरः सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका सोऽपि कोपान् महावीर्यः खुरुच्छुन्नमहीतलः सिंहाभ्यां पर्वतानुचाञ्चिच्छेप च ननाद च वेगभ्रमणविच्छुन्ना महीतस्य व्यसिर्यत लाङ्गूलेनाहतश्चाब्धि प्लावयामास सर्वतः धूतशृङ्ग विभिन्नाश्च खण्डं खण्डं युर्घणाः श्वस नीलस्ताः सत्सो नेपेतुर्णभस्मोचलाः इति क्रोधसमात्मातमापतन्तं महासुरम् दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् सा क्षिप्त्वा तस्य वैपाशं तं बबन्ध महासुरं तत्याज माहिसंरूपं सोऽपि बद्धो महामृधे तदा सिंहो भवत् सद्यो यावत्तस्याम्बिका शिरः छिनत्ति तावत् पुरुषः खड्गपाणिर्दृश्यत तद् एवासु पुरुषं देवी चिच्छेदे सायकहे तं खड्गचर्माणा सार्धं तदसो भून्महागजः कर्ण च महासिंहं तं चकर्ष जगर्ज च कर्खदस्तु क्रम देवी खड्गेन निकृन्तत ततो महासुरो भूयो मायिखं बपुरा स्थितः तथेम क्षोभयामास त्रैलोक्यं सचराचरं ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमं पवौ पुनः पुनश्चैव जहासारुणलोचना ननद चासुरः सोऽपि बलवीर्य मदोद्धतः विषानाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् सा च तान् पहितानस्तेन चूर्णयन्ति शरोत्करैः उवाच तं मदोदधूत मुखरागाकुलाक्षरम् देवी उवाच गर्ज गर्ज छनं मूढ़ मधु यावत् पिबाम्यहं मया त्वयि हतत्रैव गर्जिष्यन्त्या सुदेवताः ऋषिरुवाच एवम् उक्त्वा समुत्पत्य सारूढा तं महासुरम् पादेनाक्रम्य कंठे च स्थूलेन नयनं ताडयत् ततः सोऽपि पदाक्रान्तस्तया निज मुखात् ततः अर्धनिष्क्रान्त एवासीद देव्या वीर्येण संवृतः अर्धनिष्क्रान्त एवाशो युध्यमाणो महासुरः तया महर्षिणा देव्या शिरश्छित्त्वा निपातितः ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् प्रहर्षं च परमं जग्मुः सकला देवतागणाः तुष्टवुस्तां सुरादेवीं स दिव्यैर्महर्षिभिः जगुर्गन्धर्वपतयोन्न निर्दोष्याप्सरोगणाः ॐ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये नाम तृतीयः ॐ तत्सत् चतुर्थोऽध्यायः ध्यानम् ॐ कालाभ्रभं कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करेरुद्वहन्तीं त्रिनेत्रां शिङ्गस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामहि ॐ ऋषिरुवाच सक्रादयासुरगणा निहिते दिवीर्ये तस्मिन् दुरात्मनि सुराणि बले च देव्या तं पुष्टवः प्रणतिनं ऋषिरोधरांसा वाग्भिः प्रहर्ष पुलकोदगमचारुदेहा देव्या यया तद्मिदं जगदात्मशक्त्या निशेष देवगणशक्तिसमूहमूर्त्या तामम्बिकामखिल देव महर्षि पूज्यां भक्त्या नतास्म विदधातु शुभा निशानः यस्याः प्रभावमतुलं भगवान् अनन्तो ब्रह्मा हरश्चन हि भक्तुमलं बलं च सा चण्डिकाखिल जगत परिपालनाय नाशाय च शुभभयस्य मतिं करोतु या श्रीः स्वयं सुकृतिनां भवने स्वलक्ष्मीः पापात्मनां कृतधियां हृदये सुबुद्धिः श्रद्धा सतां कुलजन प्रभवस्य लज्जा तं त्वं नतास्म परिपालय देवि विश्वम् किं वर्णयां तवरूपचिन्तमेतत् किं चातिवीर्यं सुरक्षयकारि भूरि किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु दिव्यसुरदेवगणादिकेषु हेतुः समस्तजगतां त्रिगुणापि दोषैरनज्ञायसे हरिहरादिभिरप्यपार सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्तमाद्या यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मुखेषु देवी वाह शिव पितृगणस्य च तृप्तिर्हेतुरुच्चार्यसे त्वमत एव जनहि स्वधा च या मुक्ति हेतुर्विचिन्त्य महाव्रता त्वमभ्यस्यसि सुनियतेन्द्रिय तत्त्वसारिः मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर्विद्याशिषा भगवती परमा हि देवी शब्दात्मिका सुमलर्गजूषाङ् निधानमुद्गीथरम्य पदपाठवतां च साम्नां देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्थिहन्त्रे मेधासि देवी विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागर नौरसङ्गा श्रीकैटभा हृदयाय कक्रताधिभाषा गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ईषत्सहासमलं परिपूर्णचन्द्र बिम्बानुकारि कनकूतं कान्तिकान्तम् अत्यद्भुतं प्रहितमातरुषा तथापि वक्त्रं विलोक्य सहसा मैखासुरेण दृष्ट्वा तु देवी गुपितं भ्रुकुटीकराल मुद्यक्ष शङ्कः सदृशश्चवियन्न सद्यः प्राणान् ममोच मैखस्तदतीव चित्रं कैर्जिव्यते हि कुपितान्तक दर्शनेन।
देवी प्रसीद परमा भवती भवाय
सद्यो विनाशी असि कोपवती कुलाणि विज्ञातमेतद् धनुनैव यदस्तमेतन्नीतं बलं सुयबुलं महिखासुरस्य। तेषां मता जनपदेषु धनानि तेषां तेषां यशांसि नो च सीदति धर्मवर्गः। धन्यास्ते एव निभृतात्मजवृत्त्यदारा येषां सदाभ्युदयदा भवति प्रसन्ना। धर्म्याणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृते करोति स्वर्गं प्रयाति च ततो भवति प्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन।
दुर्गे स्मृता हरसि भीतिं शेष जन्तुः
स्वस्थय स्मृता मतिमतीव शुभं ददासि दारिद्र दुःखवैहारणे गातुदन्या सर्वोपकार करुणाय सदार्धचित्ताः। जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापं संग्राम मृतुमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवी। दृष्ट्वैव किं न भवति प्रकरोति भस्म सर्वासुरा नरीषु यत् प्रहिणोषि शस्त्रं
लोकान् प्रयान्तु रिपुपोपिः शस्त्रपूता
थं मतिर्भवति ते क्वपिते दिशाध्वी। खड़ग प्रभा निकर विस्फूर्ण स्तथोग्रहे शूलाग्र कांति निभेन दृशोऽसुराणां यन्नागता बिलयमन् सुमिदुन्दखण्ड योग्याननं तव विलोकयतां तदेतत् दुर्वृत्तवृत्त समनं तव देवि शीलं रूपं तथैतद् विचिन्तमतुल्यमन्यहि। वीर्यं च हन्त्री हृतदेव पराक्रमाणां वैरी क्वपि प्रकटितैव दयाद्वेत्थम् केनोपमा भवतु तस्य पराक्रमस्य रूपं च शत्रुभय कारयति हारि कुत्र चित्ते कृपा समरनिष्ठुरता च दृष्ट्वा त्वय्येव देवि वरदे भुवनात्रयेऽपि। त्रैलोक्यमेतदखिलं नृपुणासनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा नीतादिवं रिपुगणाभयमप्यपास्तमस्मा कुमुन्दुसुरारिभवं नमस्ते। शूलेन पाहि नो देवी पाहि खड्गेण चाम्बिके घण्टास्वनेन न पाहि चाप्यजानि स्वनेन च प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वरी सौम्याणि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षमनस्तथा भुवं खड्गशूलगदादीनि यानि चास्त्राणि त्यम्बिके करपल्लवशङ्गणि तैरस्मान् रक्ष सर्वतः। ऋषिरुवाच एवम् अस्तुतासुरैर्दिव्यः कुसुमैरनन्दनोद्भवहि अर्चिता जगतां धात्री तथा गन्धानुलेपनहि भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्। दिव्युवाच ब्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितं देवा उचुः भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते। यदयं निहितः शत्रोरस्माकं महिखासुरः यदि चापि वरो देयस्त्वयास्माकं महेश्वरी संस्मृता संस्मृता त्वं नो हिंसेथा परमापदः। यश्च मर्त्यः अस्तवैरभिस्ताम् अस्तो सत्तमलानने तस्य वित्तर्धि विभवैर्धन्दारादिसम्पदां वृद्धेष्मत्प्रसन्ना त्वं भवेथा सर्वदाम्बिके। ऋषिरुवाच इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः तथेदुक्त्वा भद्रकाली बभूवान्तर्हिता नृप इत्येतत् कथितं भूप सम्भूता सा यथा पुरा देवी देव शरीरेभ्यो जगत्त्रयहितैषिणी पुनश्च गौरी देहत् सा समुद्भूता यथा भवद् वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः रक्षणाय च लोकानां देवानामुपकारणे तक्ष्णोखमया ख्यातं यथावत् कथयामि ते ऋणम्।
श्रीमार्कण्डेयपुराणे सावर्णिके मन्मन्तरे देवी महात्म्ये शक्रादि अस्तुतिर्णां चतुर्थः ॐ तत्सत्।